इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधीतिवारी। आदौ मुख्याः वार्ताः। लोकसभा निर्वाचनस्य चतुर्थ चरणीय मतदानं संजातम्। पञ्चवादनं यावत् 62% अधिकं मतदानं समंकितम्। लोकसभा निर्वाचनस्य शेषेभ्यः त्रिभ्यः चरणेभ्यः प्रचाराभियानं शीर्षस्थानं भजते। प्रधानमन्त्री भाजपेति दलस्य वरिष्ठनेता श्रीनरेन्द्रमोदी अद्य बिहारराज्ये अनेकानि पथप्रदर्शनानि विहितवान्। सर्वोच्चन्यायालयेन अद्य झारखण्डस्य पूर्व मुख्यमन्त्रिणः हेमन्तसोरेनस्य अल्पकालिक मुक्ति याचिका निरस्तीकृता। केन्द्रीय माध्यमिक शिक्षा मण्डलेन CBSE इत्यनेनाद्य 10-12 कक्षायोः परिणामाः घोषिताः। बालिकाः सर्वोच्च प्रदर्शनानि कृतवत्यः। अपि च इण्डियन प्रीमियर लीग इत्येतस्यां क्रिकेट प्रतिस्पर्धायां समायोक्ष्यमाणे अध्यात्मके द्वन्द्वे अहमदाबाद नगरस्य नरेन्द्रमोदी क्रीडांगणे गुजरात टाइटन्स कोलकाता नाइट राइडर्स दले स्पर्धिष्येति। इदानीं वार्ताः विशदीकृत्य। लोकसभा निर्वाचनस्य चतुर्थ चरणीय मतदानं सम्प्रति संजातम्। एतस्मिन् चरणे मतदाने अद्य 9 राज्येभ्यः 1 केन्द्रशासित प्रदेशाय च 96 आसनेभ्यः मतदानानि समनुष्ठितानि। पञ्चवादनं यावत् 62% अधिकं मतदानं समंकितम्। प्राप्त सूचनानुसारि पश्चिम बंगाल राज्ये 67%, मध्यप्रदेश आन्ध्रप्रदेशयोः 68%, झारखण्ड राज्ये 63%, ओडिशा राज्ये प्रायशः 63%, तेलंगाना राज्ये 61%, उत्तरप्रदेशे 55%, बिहारे 54%, महाराष्ट्रे 25%, अपि च केन्द्रशासित प्रदेशे जम्मू कश्मीरे प्रायशः 37% मतदानं समंकितम्। लोकसभा निर्वाचनस्य शेषेभ्यः त्रिभ्यः चरणेभ्यः प्रचाराभियानं शीर्षस्थानं भजते। विभिन्नानां राजनैतिक दलानां वरिष्ठ नेतृणां जनसभाः मार्गीय जनप्रदर्शनानि च भविष्यन्ति। प्रधानमन्त्री भाजपेति दलस्य वरिष्ठ नेता नरेन्द्रमोदी अद्य बिहारराज्ये अनेकानि पथप्रदर्शनानि विहितवान्। असौ अद्य प्रातः हाजीपुर मुजफ्फरपुर क्षेत्रयोः नैकाः जनसभाः सम्बोधितवान्। सायंकाले उत्तरप्रदेशस्य वाराणसी नगरे प्रधानमन्त्री एकं मार्गीय प्रदर्शनं विधास्यति। तदनन्तरं प्रधानमन्त्री श्वः वाराणसी लोकसभाक्षेत्राय स्वीय नामांकन पत्रं प्रपूरयिष्यति। कांग्रेसदलस्य वरिष्ठनेता राहुलगांधी उत्तरप्रदेशस्य रायबरेली जनपदे एकां जनसभां सम्बोधितवान्। असौ आश्वासितवान् यत् कांग्रेस इंडी संयुतिदलं यदि प्रशासने आयास्यति तर्हि अस्य प्रथमं दायित्वं भविष्यति निर्धन कृषकाणां करमुक्ति प्रदानम् इति। सर्वोच्चन्यायालयेन प्रख्यात भूमि प्रवञ्चनायाः कथिते एकस्मिन् धनशोधन प्रकरणे झारखण्डस्य पूर्व मुख्यमन्त्रिणः हेमन्तसोरेनस्य अल्पकालिक मुक्ति याचिका निरस्तीकृता। दिल्ल्याः मुख्यमन्त्रिणः अरविन्द केजरीवालस्य साम्प्रतिक समयस्य मुक्त याचिकामवलोक्य श्रीसोरेनेन स्वकीयाय झारखण्ड मुक्ति मोर्चा दलाय प्रचाराय अल्पावधि याचिका अभ्यर्थिता आसीत्। न्यायमूर्तिनः संजीव खन्ना इत्येतस्य, न्यायमूर्तिनः दीपांकर दत्ता इत्येतस्य च एकेन पीठेन सोरेनस्य प्रदत्त याचिका श्राविता। अग्रिमं वादश्रवणं मासस्यास्य 17 दिनांके निर्धारितं वर्तते। अवधेयं वर्तते यत् झारखण्ड मुक्ति मोर्चा दलनेता अयं जनवरी मासस्य 31 दिनांके निगडितः। सम्प्रति असौ रांची नगरस्य बिरसा मुण्डा केन्द्रीय कारागृहे बन्धितो वर्तते। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च newsonair इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रीय माध्यमिक शिक्षा मण्डलेन सीबीएसई इत्यनेनाद्य 10-12 कक्षयोः परिणामाः समुद्घोषिताः। अनेन संसूचितं यत् 12 कक्षायां 87.98% छात्राः उत्तीर्णाः, यत् विगतवर्षापेक्षया 0.65% अधिकं वर्तते। अस्य वर्षस्य संजात परीक्षायां 24,000+ छात्रैः 95% अंकाः समर्जिताः। तत्रैव 17,00,000+ छात्रैः 90% अंकाः अधिगताः। छात्राः www.cbscresults.nic.in इत्यत्र उतवा www.cbsc.gov.in इत्यत्रापि स्वीय परिणामान् अवलोकयितुं शक्नुवन्ति। अत्रावसरे प्रधानमन्त्री नरेन्द्रमोदी सीबीएसई इति 12 कक्षायाः परीक्षायाः उत्तीर्ण छात्राणाम् अभिनन्दनं कृतवान्। एकेन सामाजिकान्तर्जालमाध्यमेन श्रीमोदी लिखितवान् यत् सः छात्राणाम् उपलब्ध्या तेषां नैरन्तर्येण विहितप्रयासैः अत्यन्तं गर्वितः अस्ति। सूचना प्रसारण मन्त्री भाजपेति दलनेता अनुराग सिंह ठाकुरः अद्य हिमाचल प्रदेशस्य हमीरपुर संसदीय क्षेत्रात् स्वीय नामांकन पत्रं प्रपूरितवान्। तेन सह वरिष्ठ भाजपा नेता पूर्व मुख्यमंत्री च प्रोफेसर प्रेम कुमार धूमलः आसीत्। श्री ठाकुरः अस्मात् संसदीय क्षेत्रात् नैरन्तर्येण 4 निर्वाचनं विजितवान्, 5 अस्मै क्षेत्राय स्पर्धिष्यति। तत्रैव शिमला संसदीय क्षेत्रात् भाजपा प्रत्याशी वर्तमान सांसदः सुरेश कश्यपः अपि अद्य स्वकीय नामांकन पत्रं भरितवान्। अस्मादेव आसनात् कांग्रेस दल प्रत्याशी विनोद सुल्तानपुरी अपि निज पत्रं पूरितवान्। भारतर्तु विज्ञान विभागेन अग्रिमेषु 4 उत्तर पश्चिमीय मध्य भारते तापवृद्धिः अनुमानिता। राजस्थान राज्यं समेत एतेषु क्षेत्रेषु अस्य मासस्य 16 उष्णलहरी संभाविता। ऋतुविभागस्य वरिष्ठ वैज्ञानिकैः आरके जेनामणिः संसूचितवान् यत् येषु क्षेत्रेषु अद्य मतदानं प्रचलितं तत्र उष्णप्रकोपः नैव विद्यते। आन्ध्रप्रदेश, तेलंगाना, महाराष्ट्र, मध्यप्रदेश, बिहार, झारखण्ड, दक्षिण ओडिशा राज्येषु सामान्यं तापम् अवलोकितम्। प्रधानमन्त्री वरिष्ठ भाजपा नेता च नरेन्द्रमोदी कांग्रेस दलस्य आलोचनां कृत्वा प्रत्यपादयत् कांग्रेस दलेन कदापि विकासाय प्राथमिकता न प्रदत्ता, अपितु मतसंरक्षणाय तुष्टीकरणाय च केन्द्रीभूतम् अस्ति। श्रीमोदी प्रोक्तवान् यत् भाजपा दलस्य विकास प्रधान शासनस्य परिणामः अयम् अस्ति यत् पूर्वमेव यानि राज्यानि रुग्णानि इत्युच्यन्ते तानि राज्यानि अद्य पल्लवितानि पुष्पितानि जातानि। एकस्मिन् वार्तापत्रे श्रीमोदी प्रोक्तवान् यत् भाजपा सर्वकारः एतादृशाः योजनाः निर्मितवान् याभिः लक्षाधिकाः जनाः लाभं लब्धवन्तः। केन्द्रीय जलपोत जलमार्ग मन्त्री सर्बानन्द सोनोवालः अद्य ईरान देशाय प्रस्थितः। सूत्रानुसारि मन्त्री भारत ईरान देशयोर्मध्ये महत्वपूर्ण चाबहार जलपोत स्थानक सहभागित्व पत्रे एकस्मिन् हस्ताक्षरं कृतवान्। आईपीएल इत्येतस्यां क्रिकेट प्रतिस्पर्धायां समायोक्ष्यमाणे अध्यात्मके द्वन्द्वे अहमदाबाद नगरस्य नरेन्द्र मोदी क्रीडांगणे गुजरात टाइटन्स कोलकाता नाइट राइडर्स दले स्पर्धिष्यति इति वार्ताः।